विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। पठामि संस्कृतं नित्यं, वदामि संस्कृतं कविता। ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य शिला भक्तो वन्दे संस्कृतमातरम्। संस्कृतस्य जीवन् संस्कृतस्य कृते
यजन्
आत्मानमाहुतं मन्ये, वन्दे
संस्कृतमातरम्।
संस्कृतमातरम्। नमस्ते सर्वेषां, स्वागतम्।
नमस्कारः।
अद्य वयं सीताप्रबोधनवचनं तत्र स्मः, तत् गद्यभागम् अनुवर्तयामः। पूर्वं सीतायाः हितवचनमासीत्, तन्न श्रुतवान् रावणः, तव कुलं कीदृशमस्ति इति हितवचनम्। हितवचनानन्तरं साक्षात् प्रबोधनवचनम्, अनन्तरं तिरस्कारवचनम्, तं जागरूकं कर्तुं प्रबोधनवचनं, वार्निङ्ग् वचनमासीत्। इदानीं तदपि न श्रुतवान् इति कारणेन तिरस्कारवचनं, तस्य गर्हणं करोति, तस्य निन्दां करोति, तादृशं वचनं सीतादेवी श्रावयति। किं वदति सीतादेवी? वयं दृष्टवन्तः यत् यथा अमोघः रामबाणः, किमपि लक्ष्यम् अविध्य न त्यजति, वेधनं कृत्वा असंविध्य न त्यजति, तस्य कृत्वा एव बाणः विरमति इति जगत्प्रसिद्धं किल। तादृशं तादृशः रामबाणः सर्वेषां राक्षसानां हृदयं प्रविश्य सम्यक् संलग्नः भूत्वा तत्र तेषां मेदसि सम्यक् संलग्नः भूत्वा तेषां रक्तेन दिग्धः सः बाणः, रक्तेन लिप्तः सः बाणः इदानीं शुष्कः। कालं कारणं बहुकालः जातः, मध्ये युद्धस्य विरामः अस्ति इति कारणेन इदानीं तस्य बाणस्य प्रक्षालनं भवतः हृदयात् यद् रक्तं प्रवहेत् तेन रक्तेन एव तस्य बाणस्य प्रक्षालनं भवेत् इति यदि विधि न विहितमस्ति तर्हि तद् केन परिवर्तयितुं शक्यते? न केनापि। अतः एव कदाचित् भवान् मम हितवचनं न शृणोति इति सीतादेवी तं वदति। इदानीम् अग्रे अपि किं वदति इति पश्यामः। अत्र लक्ष्मणः अपि वीरः, सः अपि आतुरः अस्ति, उत्सुकः अस्ति न्यायस्य स्थापनाय, धर्मस्थापनाय, अन्यायस्य प्रतीकचित् रामस्य अपेक्षया अपि लक्ष्मणः कोपाविष्टः भवति इति वयं बहुत्र श्रीमद् रामायणे पश्यामः। अतः सः अपि अधीरः अस्ति प्रतीकारं स्वीकर्तुम्। लक्ष्मणबाणः अपि पिपासितः इति सीतादेवी अत्र वदति। गद्यभागं पठामः। अथवा जनस्थानसमरादारभ्य, समराभावग्रहतृषितानां, सौमित्रिपत्रिचातकानां, शोणिताम्बुपारणां, तव अपनयः चेत् कः समर्थः निवारयितुम् तव अपनयः चेत् एवमेव तव अनीतिः चेत् नयः नयात् अपेत नयः इत्युक्ते न्यायमार्गः न्यायमार्गात् दूरम् अपेतम् अपनयः अतः तव अपनयः तव अन्यायः एवमेव प्रवृत्तं प्रवृत्तः चेत् किं भवति लक्ष्मणबाणः अपि त्वां लक्ष्यसात् करोति कर्तुं पिपासितः इति वदति अथवा तव अपनयः चेत् अन्वयभागं पश्यामः अथवा अस्तु रामबाणस्य तु त्वं रामबाणेन आहतः भवत्येव अपि तादृशम् अधर्मिणं त्वादृशम् अधर्मिणं मारयितुम् उत्सुकः अस्ति अथवा तव अपनयः चेत् तव अनीतिः चेत् जनस्थानसमराद् आरभ्य जनस्थानं नाम अत्र ते आरम्भकाले वनवासस्य आरम्भकाले दण्डकावने एव आसन् खलु तस्मात् स्थानात् आरभ्य समर अभावः आसीत् युद्धविरामः अभवत् बहुकालः जातः युद्धं न अभवत् कारणं तत्रैव बहवः अनेके सहस्रशः राक्षसाः मारिताः ऋषीणां यज्ञकार्यम् इदानीं निर्विघ्नं सम्पद्यते अतः समराभावः एव वृष्टिप्रतिबन्धः इति चिन्तयतु अवग्रहः नाम वृष्टिप्रतिबन्धः पूर्वं वयं रघुवंशकाव्ये पठितवन्तः अवग्रहः नाम वृष्टिप्रतिबन्धः सः अवग्रहः कारणेन त्रिषिताः सन्ति के त्रिषिताः लक्ष्मणपत्रिचातकाः लक्ष्मणस्य बाणरूपचातकपक्षिणः बाणाः एव चातकपक्षिणः इति रूपकम् अत्र तेषां चातकपक्षिणां बाणरूपचातकपक्षिणां पिपासानिवारणं केन भवति चातकपक्षी तु मेघजलं मेघापतितं जलं पीत्वा एव स्वपिपासानिवारणं करोमि इति तस्य व्रतं भवति तथैव इदानीं सौमित्रिणः लक्ष्मणस्य किं व्रतमस्ति रावणं हत्वा एव मम बाणस्य पिपासा शान्ता भवेत् इति अतः तादृश बाणस्य शोणिताम्बुपारणा भवति शोणितं नाम रक्तं तव हृदयस्य रक्तं पीत्वा एव तस्य बाणस्य पिपासा शान्ता भवेत् एवं सति एवं विहितं चेत् एवं विधिना विहितं चेत् कः तां घटनां निवारयितुं समर्थः न कोऽपि समर्थः एवं भवेदेव अग्रे इति सीतादेवी वदति अत्र प्रतिपदार्थं पश्यामः अथवा पक्षान्तरे तव अपनयः चेत् अनीतिमार्गम् आश्रितस्य तव न नयः नीतिः नीतिं न पालयति भवान् एवं सति अनीतिमार्गम् आश्रितस्य तव जनस्थानसमरादारभ्य दण्डकावनभागे दण्डक इति अस्ति दण्डका भवेत् दण्डकावनभागे तैः सह युद्धमासीत् खरादिभिः सह यत् युद्धं प्रवृत्तं ततः प्रवृति तदा आरभ्य समर अभावः एव अवग्रहः समरं नाम युद्धं समरस्य अभावः युद्धाभावः एव अवग्रहः वृष्टिप्रतिबन्धः अत्र रूपकमस्ति अतः उपमेयम् उपमानम् उभयमपि परस्परम् आरोपितमस्ति भेदः एव नास्ति समराभावः एव अवग्रहः युद्धाभावः एव वृष्टि अभावः तादृश अभावेन युद्धाभावेन त्रिषिताः सन्ति युद्धाभावेन लक्ष्मणबाणः त्रिषितः युद्धाभावेन वृष्ट्यभावेन जातकपक्षी त्रिषितः। अतः समराभाव अवग्रह त्रिषितानां युद्धस्य अप्रवर्तनम् एव वृष्टिप्रतिबन्धः तेन रुधिर जल पिपासूनां रक्तजलं पातुं छवः ये सन्ति बाणाः अथवा जातकपक्षिणः तेषां केषां सौमित्रिपत्रिजातकानां सौमित्रिः सुमित्रायाः अपत्यं पुमान् पत्रि इति अत्र अनुप्रास अलङ्कारः सुन्दरप्रयोगः अपि पत्रीणां पत्रिं पत्री इति पदं शब्दः पत्रिन् शब्दः बाणः पक्षः अस्य अस्ति इति सौमित्रि पत्रि चातकानां चातकपक्षिणां सौमित्रेः बाणाः एव चातकपक्षिणः अत्र पुनः रूपकं लक्ष्मणस्य बाणरूपचातकपक्षिणां शोणिताम्बुपारणां तव रक्तवारिपानम् पारणापदमेव बहु सुष्ठु प्रयुक्तमस्ति कविना। पारणा इति किम् इति उच्यते, वयं जानीमः एकादश्यां व्रतः भवति, ततः परं द्वादशी तिथौ प्रातः यद् भोजनं तस्य पारणा इति उच्यते, व्रतान्तभोजनम्। जातकपक्षी अपि व्रतमेव आचरति खलु, मेघजलमेव पिबामि, मेघजलाद् विना मरणम् आसन्नं चेदपि अहम् अन्यत् जलं न पिबामि इति तस्य पक्षिणः व्रतं भवति। एवमेव लक्ष्मणस्य व्रतं रावणस्य हननं भवेत्, तदनन्तरमेव मम बाणस्य पिपासा शान्ता भवेत् इति। अतः अत्र पारणा इति पदस्य प्रयोगः कृतः। शोणिताम्बुपारणां तव रक्तवारिपानं कः निवारयितुं समर्थः, कः तद् अवरोद्धुं क्षमः, कोऽपि न समर्थः इति अर्थः अत्र। अत्र सामान्य अर्थः अस्ति अथवा रामाय मम प्रत्यर्पण अभावरूपा तव अनीतिः चेत् लक्ष्मणबाणः त्वां निःसंशयं लक्षयति करोति। दण्डकावने खरादिभिः राक्षसैः सह प्रवृत्तात् युद्धात् परं युद्धविरामः जातः अस्ति, कञ्चित् कालं यावत् युद्धमेव न प्रवृत्तम्। लक्ष्मणबाणरूपाः जातकाः युद्धरूपवृष्टिप्रतिबन्धात् अत्यन्तं पिपासिताः सन्ति, तव रक्तजलपानेन एव लक्ष्मणबाणजातकानां व्रतस्य अवसानं चेत् तद् को वा निवारयितुं शक्नोति, न कोऽपि शक्नोति इति भावः। अत्र साक्षात् तिरस्कारवचनम् एव सीतादेव्याः। श्रीमद् रामायणे अपि सीतादेवी तिरस्कारवचनं वदति रावणं यदा सः पूर्वतनं हितवचनं न शृणोति। तत्र वाल्मीकिमहर्षिः एवं वर्णयति, एकं श्लोकमहं पठामि। नहि गन्धम् उपघ्राय रामलक्ष्मणयोस्त्वया शक्यं सन्दर्शने स्थातुं शुनाशार्दूलयोरिव। अत्र साक्षात् तिरस्कारवचनं, रामलक्ष्मणयोः गन्धम् उपघ्राय तयोः सामीप्यं भवति चेत् युद्धे त्वया तयोः सम्मुखीकरणं कर्तुं न शक्यते एव, न शक्यं सन्दर्शने स्थातुं त्वया। कथम् इति एकाम् उपमां दर्शयति श्रीवाल्मीकिः। शुना शार्दूलयोः इव, शार्दूलयोः पुरतः, द्वौ शार्दूलौ स्तः इति चिन्तयतु व्याघ्रौ, तयोः पुरतः किम् एकेन कुक्कुरेण शुनकेन स्थातुं शक्यं, किं न शक्यं किल। अतः साक्षात् रावणं शुनकं वदति सीतादेवी। शार्दूलौ कौ, नरशार्दूलौ इति वयं जानीमः, उत्तिष्ठ नरशार्दूल रामलक्ष्मण। शार्दूलयोः पुरतः यथा व्याघ्रयोः पुरतः शुनकः स्थातुं न पारयति, तथा त्वं रामलक्ष्मणयोः पुरतः स्थातुं न शक्नोषि इति सीतादेव्याः तिरस्कारवचनं तत्र वाल्मीकिरामायणे. सर्वे अपि तत् पठन्तः सन्ति इति भावयामि. अवश्यं पठन्तु, कारणं वाल्मीकिरामायणस्य भाषा अत्यन्तं सरला. बहुत्र तस्य अनुवादस्य अपि भाषान्तरस्य अपि अपेक्षा न स्यात्. अतः स्वयमेव वयं संस्कृतेनैव पठित्वा अवगन्तुं शक्नुयाम. एतत् तिरस्कारवचनानन्तरं किमुच्यते कविना? सीतायाः वचनं रावणेन न श्रुतमेव. रावणस्य कर्णपुटं न प्रविशति एव एतद् वचनं. कारणं किं? सः मदान्धः अस्ति, मदेन अन्धः अस्ति, मन्मथपीडया बाधितः अस्ति. अतः तम् एतद् वचनं न प्राप्नोति एव, तस्य मनः न प्रविशति. का वदन्ति किल, विनाशकाले विपरीतबुद्धिः इति. बुद्धिः विवेकः विवेकः न उदेति. विवेकस्य उदयः न भवति चेत् किं भवति? यत् असमीचीनं, यद् अधर्मं भवति, तदेव धर्मः इति कश्चन चिन्तयति. श्रीमद्भगवद्गीतायां दोषवत् ज्ञानम् इति अधर्मः इति रजोगुण सम्पन्नाः ये जनाः भवन्ति तेषां. किन्तु अधर्मः एव धर्मः इति तमोगुणापन्नाः जनाः चिन्तयन्ति. तथा इदानीं रावणः अत्यन्तं व्याकुलमनः मनाः अस्ति. अतः सीतायाः हितवचनं वा तिरस्कारवचनं वा तस्य मनः न प्रविशति एव इति श्लोकस्य भावः. एतं श्लोकं पठामः. एकविंशति तमः श्लोकः. अथ निशिचरनाथं पञ्चबाणी विभिन्नम्.
अथ निशिचरनाथं पञ्चबाणी विभिन्नम्.
नहि जनकः प्रापदे कापि वाणी. जनम् उपनत मृत्युं पञ्चवक्त्रा हि दष्टम्. विशति हृत विषाधे रोषधे किं नु शक्तिः. अस्य पदच्छेदः अथ निशिचरनाथं पञ्चबाणी विभिन्नं न हि जनकसुतायाः प्रापत् एका अपि वाणी. जनम् उपनत मृत्युं पञ्चवक्त्रा हि दष्टं. विशति हृदविषाधेः ओषधेः किं नु शक्तिः. अत्र क्रियापदं किम् इति पश्यामः. प्रापत् इति क्रियापदम्. आप् धातोः लुङ् अद्यतन लुङ् लकारः. नहि प्रापत् लकारः भवति चेत् क्रियया सह नकारस्य योगः भवति. न प्रापत्. आ न प्रापत् कीदृशी वाणी? एकापि वाणी न प्रापत्. बहूनि हितवचनानि, प्रबोधनवचनानि इति क्रमेण साम दान भेद दण्ड इति उपायाः भवन्ति किल. आदौ एव तर्जनं न करोति सीतामाता करुणापूर्णा. अतः हितवचनेन एषः आत्मानं परिष्करोति इति विचिन्त्यदुक्तं, तदपि न प्राप्त. अग्रे प्रबोधनवचनं, तदपि न प्राप्त. इदानीं तिरस्कारवचनं, तदपि न प्राप्त. अतः एव एकापि वाणी. कस्याः वाणी? जनकसुतायाः. सा च वाणी कं न प्राप्त? निशिचरनाथं. निशिचराणां नाथः रावणः. निशि चरन्ति इति राक्षसाः. रात्रौ निशा इति स्त्रीलिङ्गपदमपि भवति. निट् निशौ निशः इति अपि भवति. अत्र निशि हलन्तशब्दः. निशि निशिचरन्ति इति निशिचराः. तेषां नायकः रावणः. तं रावणम् एकापि वाणी न प्राप्त. कीदृशं निशिचरनाथम्? अस्मिन् समये तस्य दशा कीदृशी अस्ति? पञ्चबाणी विभिन्नम्। यस्य पञ्चबाणाः सन्ति सः पञ्चबाणी मन्मथः। पूर्वमेव अस्माभिः उक्तं पञ्चबाणी मन्मथः किमर्थम् उच्यते इति अग्रे पश्यामः। तादृशेन मन्मथेन पीडितम्, न विशति। किं नु विशति? किं प्रविशति? का विशति? शक्तिः। तस्याः शक्तिः ओषधेः। अग्रे इदानीम् एकं दृष्टान्तं ददाति, एकम् उदाहरणं। यथा कस्यचन कञ्चन जनं सर्पः, पञ्चमुखसर्पः दंशति इति चिन्तयतु। तादृशं जनं किम् ओषधेः शक्तिः तस्य शरीरं प्रविशति वा? न प्रविशति किल। तद्वदिव इति अत्र दृष्टान्तं। का विशति? शक्तिः। तस्याः शक्तिः ओषधेः शक्तिः। कीदृश्याः ओषधेः? हृतविषाधेः। ओषधेः इति पदस्य विशेषणपदं हृतविषाधेः। कं विशति? पञ्चमुखाहि दष्टं जनं। कीदृशं जनम् इत्युक्ते पञ्चमुखाहि दष्टं जनम्। पुनः कीदृशं जनम्? मृतप्रायं, मरणासन्नम् इति अस्ति किल, उपनतमृत्युं, मृत्युमापन्नं कञ्चन जनम्। अन्वयः भवति अथ जनकसुतायाः एकापि वाणी पञ्चबाणी विभिन्नं निशिचर। पञ्चवक्त्रा हि दष्टम् उपनतमृत्युं जनं हृतविषाधेः ओषधेः शक्ति किं नु विशति? न विशति किल इति भावः। अन्वयार्थं प्रतिपदार्थं पश्यामः। अथ जानकी कथनानन्तरं, जानकी यद्यदुक्तवती तस्य सर्वस्य अनन्तरमपि, जनकसुतायाः सीतायाः एकापि वाणी एकमपि वचनं पञ्चबाणी विभिन्नं मन्मथेन प्रहृतम्। प्रहारः जातः रावणे। पञ्चबाणी इति किमर्थं तस्य नाम इत्युक्ते, यस्य शरे पञ्चबा, यस्य तूणीरे पञ्चबाणाः भवन्ति तद् कैः निर्मितम् इत्युक्ते पुष्पैः, अशोक अरविन्द च्यूत नवमल्लिका नीलोत्पल इति पुष्पैः निर्मिता बाणाः यस्य, सः पञ्चबाणी, पञ्चबाणाः अस्य सन्ति इति पञ्चबाणी मन्मथः। तेन मन्मथेन प्रहृतं, ताडितः निशिचरनाथं राक्षसेश्वरं न प्रापत्, न उपगच्छति स्म, एकं वचनमपि तं न प्राप्नोति। कथम्? एकं दृष्टान्तम्। पञ्चवक्त्रा हि दष्टं, पञ्चवक्त्र सर्प, पञ्चमुखसर्पः अस्ति किल, तेन, तादृशविषययुक्त अहि सर्पः, तेन दष्टं जनम्। सर्पदशनेन दंशनेन पीडितं जनम्, उपनतमृत्युं जनम्, आसन्नमरणं जनम्, मृतप्रायः सः। अहेः विषः, विषं तस्य शरीरे सर्वत्र प्रसृतम् अस्ति, कदापि तस्य मृत्युः सम्भवेत्। तादृशं जनम् हृतविषाधेः ओषधेः शक्तिः किं नु विशति? विषदोषं हर्तुं समर्था अस्ति ओषधिः काचित् इति चिन्तयतु। विषः एव आदिः, तस्य हरणं कर्तुं, तद् निवारयितुं समर्थः हृतम्, हृतं हृतः विषादिः येन, यया, तादृशी ओषधिः, हृतविषाधेः विषदोषं हर्तुं समर्थायाः ओषधेः शक्तिः। किं नु विशति? ओषधेः वीर्यं किं प्रभावी भवति? किं प्रभावशालिनी भवति? तादृशी ओषधिः न भवति खलु इति तात्पर्यम्। तत्र भावार्थः एवमस्ति, यद्यपि रावणं वारयितुं सीतादेवी अनेकानि हितवचनानि अवदत्, तथापि मन्मथबाणाहतः सः रावणः चित्तवैकल्यं प्राप्य नष्टविवेकः जातः। एवं सति एतस्यां स्थितौ एकमपि तद्वचनं रावणस्य ग्राह्यं न भवति, सर्वमपि वचनम् अग्राह्यं भवति। कथं? यथा विषहरणे समर्था अपि ओषधिः, पञ्चमुखसर्पदंशनात् आसन्नमरणस्य मृतप्रायस्य जनस्य शरीरे ओषधिः यथा शक्तिः न भवति, तथा एव सीतादेव्याः वचने शक्तिः अस्ति, सामर्थ्यम् अस्ति, किन्तु रावणस्य मनसि विवेकः नष्टः, मोहः प्रविष्टः। वयं दृष्टवन्तः किल, मोह समग्रमपि तमः मोहरूपं प्राप्य तस्य हृदयं प्रविष्टम् इति। तादृशमोहाकुलम् अस्य रावणस्य चित्तम् एकमपि तद्वचनं न प्रविशति एव इति अत्र दृष्टान्तद्वारा कविः वर्णयति रावणस्य दशाम्। अग्रे हितविषादेः इति पदस्य किं विवरणम् इति वदामि। विषः एव आधिः, आधिः व्याधिः, अनयोः पदयोः भेदः कः? व्याधिः इत्युक्ते देहसम्बद्धव्याधिः, यथा ज्वरः, पीनसः, कासः इति बहुविधशरीरे। आधिः इत्युक्ते मनसः दुर्दशा, मनसः ज्वरः वा, मनस्सम्बद्धव्याधिः आधिः इति उच्यते। विषः एव अत्र आधिः इति चिन्तयतु, कारणम् अत्र रावणस्य मनः एव आकुलमस्ति, व्याकुलमस्ति किल, अतः इन्द्रियद्वारा मनः तस्य अभिभूतमस्ति, सम्पूर्णतया अवशे अस्ति तस्य मनः, अतः आधिः इति पदं प्रयुक्तम्। हृतः विषाधिः यया सा, हृतः इत्युक्ते अपहृतः, दूरं नीतः, विषाधिः यया, यया इति स्त्रीलिङ्गशब्दः, ओषधिशब्दस्य विशेषणम्, अतः हृतः विषाधिः यया सा हृतविषाधिः ओषधिः, तस्याः हृतविषादेः ओषधेः शक्तिः अपि प्रभावहीना भवति इति अत्र तात्पर्यम्। अग्रे इदानीम् एकं गद्यभागं पठामः। अत्र किं भवति इत्युक्ते, सीतादेव्याः वचनं समाप्तं, रावणे तद् किमपि प्रभावं न जनयति। इदानीं रावणः अत्यन्तं कुपितः, सः चिन्तयति, अहमेव नाथः, स्वामी, लङ्काधीशः, माम् एषा बलहीना अबला स्त्री मां तर्जयति, तस्याः साहसं कथम् इति, कथं सा साहसं करोति इति तस्याः महान्, तस्याः महत् महान् कोपः। अतः सः परितः विद्यमानाः राक्षस्यः सन्ति खलु, ताः राक्षस्यः याः रक्षिकाः सन्ति, आरक्षिकाः, ताः सः आज्ञापयति, आज्ञां ददाति। काम् आज्ञां ददाति? भवत्यः एनां वशीकुर्वन्तु, एतस्याः मनः परिवर्तनं यथा स्यात्, एषा यथा प्रतिकूला न स्यात् अनुकूला स्यात्, तथा एतस्याः प्रबोधनं कुर्वन्तु, तर्जनं कुर्वन्तु, ताडनं कुर्वन्तु, हितवचनं वदन्तु, यत् येन केनापि उपायेन, चत्वारः उपायाः सन्ति किल, सामदान वेददण्ड, येन केनापि उपायेन एतस्याः मनः परिवर्तनं साधयन्तु। यदि एषा तथापि न शृणोति तर्हि किं करणीयम् इति आज्ञामपि ददाति, यदि तथापि एषा न शृणोति तर्हि एतां पाकशालां नयन्तु, तत्र एताम् एव मारयित्वा प्रातराशः भवति, प्रातर्भोजनाय एतस्याः शरीरमेव श्वः भवतु इति रावणस्य आज्ञा. इदानीं पठामः. एवं जनकदुहितुः अवधीरणा फणितिम् आकर्ण्य कोपपराङ्मुखः दशमुखः ताम् अभितः निवसन्तीः आरक्षिकराक्षसीः उद्दिश्य भवत्यः चतुर्भिः अपि उपायैः एनाम् अवश्यं वश्यां कुरुध्वम् इयम् अननुकूला चेत् इमां हताशां प्रातरशनाय महानसं नयत इत्यादिश्य निशान्ते प्रत्यासन्ने निशान्तम् एव प्रविवेश सरलः एव गद्यभागः अतः अहं सर्वेषां पदानाम् अत्र अर्थं न वदामि चेदपि भवन्तः अवगच्छन्ति. केषाञ्चन पदानाम् अर्थम् अहं विवरणम् अर्थस्य विवरणं वदामि. एवम् अनेन प्रकारेण जनकहितुः अवधीरणा फणितिम् आकर्ण्य. फणितिः इति अत्र वचनं सामान्यतया फणति इत्युक्ते गम् गत्यर्थकधातुः, किन्तु अत्र वयं पूर्वमेव जानीमः गत्यर्थकधातुः बुद्ध्यर्थकधातुः, गच्छति अवगच्छति इति पदं समान अर्थं धरति इति. अतः एवं जनकदुहितुः अवधीरणा तिरस्कारफणितिं, तिरस्कारवचनम् अवधीरणा फणितिम् आकर्ण्य श्रुत्वा अन्वितमेव अस्ति एतद्. अतः पुनः अन्वयस्य आवश्यकता नास्ति. कोपपराङ्मुखः दशमुखः, कोपेन विमुखः, कोपेन तस्य मनः विमुखमस्ति, तस्य मनः अनुदिशि न वचनानुदिशि न न प्रवर्तते, विपरीतदिशि प्रवर्तते किल. अतः कोपपराङ्मुखः दशमुखः रावणः ताम् अभितः निवसन्तीः आरक्षिकराक्षसीः उद्दिश्य, सीतादेवीं परितः विद्यमानाः विद्यमानाः आरक्षिकराक्षसीः उद्दिश्य ताः प्रति वदति. किं वदति? भवत्यः चतुर्भिः अपि उपायैः एनाम् अवश्यं वश्यां कुरुध्वम्. भवत्यः चतुरः उपायाः सन्ति किल, कस्यचित् कञ्चित् जनं वशीकर्तुं, कञ्चित् जनं बोधयितुं. के उपायाः सन्ति? साम, दान, भेदः, दण्ड. सामन् नकारान्त नपुंसकलिङ्गशब्दः, सामन् इत्युक्ते सन्धिः, समाधानं. प्रथम उपायः भवति समाधानेन कस्यचित् वशीकरणं. तद् न सिद्ध्यति चेत् किं? दानम्, दानम् उत्कोचः, भूरिधनदानेन जनस्य वशीकरणं शत्रोः. अत्र उत्कोचदानम् उचितं नास्ति, किन्तु यदि शत्रुः विपरीतम् आचरति चेत् तद् न्याय्यं भवति. दानं, भेदः, भेदः इत्युक्ते ड्यूप्लिसिटि, द्वैधीभावः, परोपजापः इति चाणक्यनीतौ अपि अस्य बहु वर्णनमस्ति. परेषाम् उपजापः, मन्त्रणं, भेद उत्पादनं, भेदोत्पादनं, द्वयोर्मध्ये वैरम् उत्पाद्य स्वकार्यसाधनम्, एतत् सर्वं स्टेट् क्राफ्ट् मध्ये एतत् सर्वं न्याय्यं भवति. सामान्यलोकव्यवहारे न भवति चेदपि चाणक्यनीतौ एतेन मार्गेण, एतेन उपायेन शत्रुं जेतुं वयं शक्नुमः इति. अनन्तरं दण्डः आक्रमणमेव साक्षात्. अतः कञ्चित् उपायं प्रयुज्य एनाम् अवश्यं वश्यां कुरुध्वं, निश्चयेन एनां वशीकुर्वन्तु, एनां सीतां वशी आनयन्तु. तथापि इयम् अननुकूला, तथापि अनुकूला न इति चेत् इमां हताशाम्, अनन्तरं सा अगतिका भवति, कोऽपि रक्षणस्य तदनन्तरम् उपायः न भवति. हताशां सा आशा यस्याः, तादृशी मेनां हताशां प्रातरशनाय, प्रातःकालीन भोजनाय महानसं नयत. महानसम् इत्युक्ते पाकशालां, पाकशालां नयत इति आदिश्य, इति आज्ञाप्य निशान्ते प्रत्यासन्ने. निशान्तम् इत्युक्ते निशायाः अन्तम्, रात्रेः अन्ते प्रत्यासन्ने, रात्रेः अन्तिमः कालः, अन्तिम यामः, आसन्नः, सन्निहितः. किञ्चित् काल, कञ्चित् काल अनन्तरम् उषःकालः भवति, तादृशसमये निशान्तम् एव प्रविवेश. निशान्तम् इत्युक्ते भवनम्, निशान्तम् इत्युक्ते गृहं, भवनम्. अत्र निशाम्यति कश्चित् इत्युक्ते विश्रान्तिं स्वीकरोति, विश्रम्यते अस्मिन् इति निशान्तम्. निशान्तं रात्रेः अन्तं, निशान्तं भवनम् इति अपि. अतः एव कविना सः प्रयोगः कृतः. एतादृशपदं यत्र पदद्वयम् अपि द्विवारं प्रयुज्यते, पुनः तस्य भिन्नभिन्न अर्थौ भवतः यमक अलङ्कारः भवति. श्लेषः चेत् एकवारं प्रयुक्तं पदं, किन्तु भिन्नार्थान् द्योतयति. अत्र किं वदति देवी सीता, किं यद्यदुक्तवती तद् तेन सह कुपितः किल रावणः, सः किम् आज्ञापयति अन्यराक्षसीः इति. अत्र पूर्वोक्तप्रकारेण सीतायाः तिरस्कारपूर्णवचनं श्रुत्वा क्रोधात् प्रतिहतधीः रावणः, विमुखः रावणः, सीतां परितः स्थिताः आरक्षिकाः राक्षसीः प्रति अवदत्, भवत्यः एनां वशम् आनेतुं सामदानभेददण्डेषु अन्यतमं कमपि उपायं प्रयुञ्जीरन्, तथापि इयम् अवश्या चेत् अगतिकाम् एताम् प्रातःकालिकभोजनाय पाकशालां नयन्तु इति आज्ञापितवान् रावणः. ततः यदा उषःकालः सन्निहितः तदा स्वभवनमेव प्रविष्टवान्, रात्रेः अन्तिमकाले सः स्वभवनं गतवान्. इदानीम् अग्रे एकः गद्यभागः अस्ति. तत्र रावणस्य आज्ञा इदानीं तैः पालनीया किल, ताभिः, अतः ताः तर्जयन्ति राक्षस्यः सीतादेवी भूरि तर्जयन्ति. तद् श्रोतुं कर्णकठोरं भवति, तद्वचनं परुषं वचनं वदन्ति. तद् वचनं श्रुत्वा सीतादेव्याः गतिः, स्थितिः कथं भवति इति कविः अत्र वर्णयति. मुकुलितहृदयपुण्डरीका, हृदयकमलं सङ्कुचितं भवति किल, यदा प्रोत्साहनवचनं वदामः अथवा प्रशंसावचनं, प्रीतिपूर्वकं वचनं वदामः, तर्हि हृदयस्य विकासः भवति. यदा असमीचीनं, तर्जनपूर्वकम्, अपशब्दं यदि वदन्ति जनाः, तर्हि श्रोतुः हृदयं सङ्कुचितं भवति. तथैव अत्र मुकुलितहृदयपुण्डरीका, सङ्कुचितहृदया अभवत् सा. पुनः तस्याः स्थितिः कथम् आसीत् इत्युक्ते, अत्र त्रिविधं विधाम् उपमां दर्शयति. एकं तु सङ्कुचितहृदया जाता, अनन्तरं व्याघ्रैः परिवृता हरिणी इव सा दृष्टा तत्र. चिन्तयतु, व्याघ्रगणः एकस्य व्याघ्रगणस्य मध्ये काचित् हरिणी अस्ति, तस्याः स्थितिः कथं भवति? तादृशी लक्षिता सीतादेवी पुनः कीदृशी इत्युक्ते, स्वर्गात् पतिता काचित् स्वर्गलोककन्या शापवशात् भूमिम् आपन्ना इव तस्याः गतिः आसीत्. तादृशी जानकी चिन्ताम् अकरोत्. अग्रे तस्याः चिन्तायाः विषयः उच्यते, सा चिन्तां कृतवती इति विवरणं वयं पश्यामः. तदनु क्षण क्षणदाचरीणां भीषण वीक्षण वाग्दोषोन्मेषण मुकुलित हृदय पुण्डरीका पुण्डरीक यूथ परिवृत सारंगांगना भंगीम
तापबलात्
वसुधां प्रापन्ना प्रपन्ना एव वसुधां प्रपन्ना जनकनन्दिनी चिन्ताम् एवमकरोत् तदनु तदनन्तरं कदा? यदा रावणः स्वभवनं निशान्तं प्रविष्टवान् इति दृष्टवन्तः खलु. तदनु ततः परं रावणगृहप्रवेशानन्तरं स्वस्य गृहस्य अन्तः यदा सः गतवान् तदा क्षणदाचरीणां, क्षणदा इत्युक्ते रात्रिः, क्षणदायां चरन्ति इति क्षणदाचर्यः, निशिचराः, क्षणदाचराः इति बहुपदानि सन्ति. रात्रेः पर्यायपदानि, रात्रिः, निशा, अनन्तरं निट्, क्षणदा इति अग्रे दोषा इति एकपदमपि रात्रिपदस्य पर्यायपदम् अग्रे वयं पश्यामः. क्षणदाचरीणां निशिचराणां क्षणदायां चरन्ति इति क्षणदाचरी चर्यः. भीषण वीक्षण वाग्दोषोन्मेषण इति अस्ति. तेषां भयंकर वीक्षणं, राक्षसीः कथं राक्षस्यः कथं भवन्ति, विकट रूपं तेषां भवति, अतः तेषां वीक्षणम् ईक्षणमेव भयं जनयति किल. अतः भयङ्करविलोकनं यस्मिन् वाग्दोषे तादृशदुष्टवचनस्य प्रकाशनेन दोष उन्मेषेण, उन्मेषणम् इत्युक्ते वयं जानीमः उद्घाटनं, नेत्रस्य उन्मेषणं, नेत्रस्य निमेषणं, तथा उन्मीलनं निमीलनम् इति वचनमपि. तेषां भयङ्करविलोकनपूर्वक परुषवचन कथनं, तस्य तादृशपरुषवचनस्य प्रकाशनं, प्रकटनं भवति किल तादृशपरिस्थितौ. अथवा पश्यतु, अत्र दोषा इति पदं, वाग् दोषस्य उन्मेषणम् इति अपि समस्तपदं वयं ग्रहीतुं शक्नुमः. भीषणवीक्षणवाग् एव दोषा, दोषा रात्रिः, दोषा इत्युक्ते रात्रिः, भीषणवीक्षण वाकेव दोष, तादृश वाकेव रात्रिः, रात्रौ, रात्रिः मोहेन सर्वदा तस्य सादृश्यं भवति किल, अतः तादृशमोहकाले असुरकाले रात्रिसमये तेषां भीषणवीक्षणं, तेषां परुषवाचकथनं, तत्सर्वं तस्य प्रकटनं, तस्याः उन्मीलनेन रात्रेः तादृश तादृश्याः रात्रेः प्रकटनेन किं भवति? रात्रिः यदा आसन्ना तदा पद्मं संकुचितं भवति, सूर्योदयः यदा भवति तदा पद्मं विकसति. पुण्डरीकम् इत्युक्ते पद्मं, मुकुलितहृदय तस्याः हृदयपद्मं मुकुलितं संकुचितम् अभवत्. संकुचितं हृदयकमलं यस्याः, तादृशी सीतादेवी. अथवा यदि परुषवचनम् इति पक्षं स्वीकुर्मः चेत् परुष राक्षसीनां परुषवचश्रवणेन संकुचितं हृदयकमलं यस्याः, तादृशी सीता इति मुकुलितहृदयपुण्डरीका इति अर्थं प्राप्तुं शक्नुमः. यदि दोषा इति पदं रात्रिं सूचयति इति यदि अर्थं कुर्मः तर्हि कथं भवति? परुषवचनमेव रात्रिः, तादृश्याः रात्रेः उपस्थितिकारणेन पद्मं मुकुलितं भवति साक्षात् एव किल. तथापि वयम् अर्थं ग्रहीतुं शक्नुमः, रात्र्याः आगमनेन पुण्डरीकं संकुचितं भवति. तादृशसमये तादृशी तस्मिन् समये सीतायाः गतिः कथमासीत्? कथमासीत् इत्युक्ते यूथपरिवृतसारङ्गाङ्गना भङ्गीम् अङ्गीकुर्वाणा. सा काचित् काञ्चित् दशां प्राप्तवती, अङ्गीकृतवती इत्युक्ते तादृशीं दशां, तादृशीं स्थितिं प्राप्तवती. कीदृशीं स्थितिं प्राप्तवती इत्युक्ते पुण्डरीक पूर्वतनपदे पुण्डरीकम् इत्युक्ते सितपद्मं, श्वेतपद्मं पुण्डरीकम्. अत्र पुण्डरीकः इत्युक्ते पुल्लिङ्गशब्दः, व्याघ्रः. पुण्डरीकयूथ व्याघ्रगणेन, बहवः व्याघ्राः सन्ति, व्याघ्राणां कश्चन गणः अस्ति, ते कस्याश्चित् काञ्चित् हरिणीं परितः तिष्ठन्ति इति चिन्तयतु. कथं तद्दृश्यं वयं मनसि चिन्तयामः चेत् अस्माकं मनसि एव भीतिः भवति किल. पुण्डरीकयूथपरिवृतसारङ्गाङ्गना भङ्गीं, सारङ्गकन्या नाम हरिणी, हरिणी यां दशां प्राप्नोति तादृशीं दशाम् इदानीं सीता प्राप्तवती. व्याघ्रगणेन वलिता, वलितायाः हरिण्याः स्थितिम् अङ्गीकुर्वाणा इत्युक्ते आपन्ना प्राप्तवती. पुनः कथमासीत् सा? शापबलात् वसुधां प्रपन्ना इव, शापवशात् भुवं प्राप्तवती काचित् स्वर्गलोककन्या इव, गीर्वाणतरुणी इव. गीर्वाणतरुणी इत्युक्ते देवलोककन्या इव जनकनन्दिनी सीतादेवी, जनकसुता सीतादेवी चिन्ताम् एवम् अकरोत्. वक्ष्यमाणप्रकारेण अग्रे वक्ष्यते, तादृशं सा चिन्तां कृतवती स्वमनसि इति. कीदृशीं चिन्ताम् अकरोत् इत्युक्ते निश्चयेन रामः मम स्थितिगतिं न जानाति, नो चेत् निश्चयेन सः एतावत् पर्यन्तं मम रक्षणम् अकरिष्यत्. न कृतवान् इति चेत् सः न जानाति तस्य मम स्थितिगतेः विषये तस्य अज्ञानस्य कारणं किम्? जटायुः मरणं प्राप्नोत्. यदि जटायुः एव साक्षी आसीत् रावणस्य सीता अपहरणस्य, तद् सः जटायुः मृतः इति कारणेन सः रामं न उक्तवान् स्यात्, तेन कारणेन रामः न जानाति कदाचित् इति सीता चिन्ताम् अकरोत्. अत्र पूर्वतनगद्यांशे कानिचन दीर्घपदानि सन्ति, पुनः अहं विवरणं वदामि. क्षणदाचरीणां, क्षणदायां चरन्ति इति क्षणदाचर्यः राक्षस्यः, तासां भीषणवीक्षणवाग्दोषोन्मेषण, तेषां भयङ्कर अवलोकनपूर्वक परुषवचनश्रवणेन, परुषवचनस्य प्रकटनेन, वचनं प्रकटयन्ति किल, पूर्वमेव मनसि आसीत् सीतां प्रति एतानि वचनानि वक्तव्यानि इति, इदानीं रावणः एव आज्ञां दत्तवान्, अतः ताः सीतां तर्जयन्ति, तस्य प्रकटनं कुर्वन्ति. तेन किम् अभवत्? तस्य यथा रात्रेः प्रकटनेन कमलं सङ्कुचितं भवति, तथा रात्रि दोषवचन दुष्टवचनरूप रात्रेः उपस्थित्या सीतादेव्याः हृदयकमलं सङ्कुचितम् अभवत्. मुकुलितहृदयपुण्डरीका सीतादेवी. पुनः पुण्डरीकशब्दस्य अत्र अर्थद्वयमस्ति. एकं पुण्डरीकं सितपद्मं श्वेतपद्मम्, अन्यपुण्डरीकः इति व्याघ्रः. व्याघ्रयूथ, यूथ नाम गणः, व्याघ्रगणेन वलयित परिवृत परिवेष्टित सारङ्गाङ्गना. सारङ्गाङ्गना नाम हरिणी. तस्याः भङ्गीं, तस्याः स्थितिं, दशां, रीति. भङ्गी इति एक अवस्था. श्रीकृष्णस्य अपि त्रिभङ्गी इति पदं बहु प्रसिद्धम् अस्ति. त्रिषु स्थानेषु वक्रं भवति, एकं तु ग्रीवा, अनन्तरं कटि, अनन्तरं पादः. अतः त्रिभङ्गी इति उत्कलदेशेषु तस्य बहु प्रसिद्धिः. त्रिभङ्गी भङ्गिमा श्रीकृष्णस्य आकृतेः तत्र बहु कीर्तनं भवति. भङ्गीं तादृशीम् अवस्थाम् अङ्गीकुर्वाणा प्राप्ता गीर्वाणतरुणी इव देवलोककन्या शापवशात् भूमं प्राप्तवती, भूमिं प्राप्तवती इति चिन्तयतु कथं भवेत्. तादृशीं गतिं प्राप्पन्ना जनकनन्दिनी, तादृशीं गतिमिव प्राप्तवती इव जनकनन्दिनी अनेन प्रकारेण, वक्ष्यमाणप्रकारेण चिन्तां कृतवती. कां चिन्तां कृतवती? श्लोकं पठित्वा वयं समापयामः. नूनं विदितवृत्तान्ते जटायुषि गतायुषि,
जटायुषि गतायुषि
मामिहस्तामार्यपुत्रः,
मामिहस्तामार्यपुत्रः
नाधिगतवान् प्रभुः,
नाधिगतवान् प्रभुः.
पदच्छेदः अस्ति नूनं विदितवृत्तान्ते जटायुषि गतायुषि माम् इहस्थाम् आर्यपुत्रः किं न अधिगतवान् प्रभुः. अत्र अधिगतवान् इति तवत्तु प्रत्यय क्रियासूचकं पदं. नूनं न अधिगतवान् किम्? अधिगतवान् इत्युक्ते अत्र ज्ञातवान् इति अर्थः. किं मम अत्र स्थितिः अस्ति, मम अहम् अत्र अस्मि इति न अधिगतवान् वा श्रीरामः इति सीतादेवी चिन्ताम् अकरोत्. नूनं न अधिगतवान् किं, न ज्ञातवान् किं, कः न अधिगतवान्? आर्यपुत्रः, पत्पतिः. कीदृशः आर्यपुत्रः? प्रभुः. प्रभुः इत्युक्ते समर्थः. सः मम अन्वेषणे, शत्रोः मारणे समर्थः अस्ति प्रभुः. किन्तु अहमत्र अस्मि इति अज्ञान इति न जानाति इति कारणेन एव सः अत्र न आगतवान् इति अर्थः अत्र प्रभुः शब्दस्य. कां न अधिगतवान्? माम्. कीदृशीं माम्? इहस्थाम्, अत्रत्याम्. इह इत्युक्ते अत्र, अव्ययम्. इहस्था, अत्र स्थितां माम् कुतः, केन कारणेन न अधिगतवान्? जटायुषि गतायुषि. जटायुः गतायुः जातः, जटायुः मृतः. अतः अत्र सतिसप्तमी, अत्र कार्यकारणसम्बन्धः अस्ति. जटायुषि गतायुषि सामान्य अर्थः. नूनं निश्चयेन विदितवृत्तान्ते. कीदृशे जटायुषि? विदितवृत्तान्ते. वृत्तान्तं जानाति. किं वृत्तान्तं जानाति? एवं रावणद्वारा सीतायाः अपहरणं जातम् इति वृत्तान्तं विदितमस्ति जटायुना. अतः तादृश जटायुः मृतः इदानीम्. तेन कारणेन श्रीरामः कदाचित् मम विषये अहमत्र अस्मि इति विषयम् अजानन् माम् न माम् अन्वेष्टुं वा माम् पुनः प्राप्तुं वा प्रयत्नं न करोत् न आगतवान् अत्र इति सीतादेवी चिन्ताम् अकरोत्। अत्र अनेन श्लोकेन वयं विरामं दद्मः, पुनः अग्रिमसप्ताहे मिलामः। इदानीं शान्तिमन्त्रेण समापयामः। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्।
ॐ शान्ति शान्ति शान्तिः।
शुभरात्रिः।